chapter. Dhritarashtra-vacha dharma-kshetre kuru-kshetre samaveta yuyutsava anamata pandavascha eva kima kuravata samdhara samdhara Mabravit Pashyaitam Bandhu Putranam Madhaya Mahitim Chamum Yudam Drupada Putrena Davasishena Dimata Atrasura Maheshvasa Vimarjuna Samayudhi Yuyodano viratascha drupadascha maharataha Drishtaketurushchekitana kashirajascha viryavan Purujit kuntibojascha shaibhyascha narapungavaha Yudamanyuscha vikranta utamamajascha viryavan Saubhadra drupadeyascha sarvaiva maharataha Asmakam tu vishishaye tannibodha dvijottama Nayaka mama sanyasya samgyartam tan bravimite Bhavan yishmascha karnascha kripascha samitim jaya Asratam avikarnascha somadattistatayvacha Anyecha bhava shura madate tyakta jivitaha Nana Shastra Praharana Sarve Yudha Visharadaha Aparyaptam Tarasmakam Balam Bhishma Mirakshitam Paryaptam Tridametesham Balam Bhima Birakshitam Anyeshu Cha Sarveshu Yudha Bhagam Avastitaha Bhishmam Meva Birakshantu Bhavanta Sarvevahi Tasya Sanjayanam Harsham Kuru Vrida Pitamaha Simhanadam Vinadyochai Shankam Dadma Pratapavan Tata Shankascha Veryascha Vanabhavana Karo Mukha Sahasaiva Vyahanyanta Sashabdashtamulo Bhavat Tata Svetair Hayar Yukte Mahati Syandane Sitao Madhava Pandavas Chaiva Divyao Shanta Pradat Matu Pancha Janyam Rishikeshwa Vedavadatam Dananjaya Pondram Dadma Mahashankam Bhima Karma Vikodara Ananta Vijayam Raja Kundi Putro Yudhishthira Nakula Sahadevascha Sugosha Mani Pushpakau Kashyascha Parameshvasa Shikandicha Maharataha Vrishtadyumna Viratascha Satyakisha Parajitaha Drupado Drupadeyascha Sarosha Prithivipate Sobhadrasya Mahabhavu Shankam Dadmu Pritak Pritak Sarosho Dharatrashtranam Hridayani Vyadarayat Navasya Prithivim Chaiva Tumulo Vyanunadayan Atha Vyavastitan Rishtva Dharatrashtranam Kapidvaja Pravite Shastra Sampate Danarudyam Yapandavaha Rishikesham tadavakyam idamaha mahankvate Arjuna vachaya Senayoru vayor madye ratam savayam echuta Yavadetan nirisheham yodukam avastitan Karmaya sadayodavyam asminranam samandhyade Yoshyamanam avesheham yaitetra samagataha Dhritarashtrasya durbhudir yudhe priya chirakshavaha Sanjaya uvacha eva mukto rishikesho gudakesena bharata Senayor uvayor madye sapahit bharatottamam Bhishma drona pramuktaha sarvesham cha mahishitam Uvacha partha pashyaitam samavitam guruniti Tatra asyastitam bharta pitrinata pitamahan acharyan matulan bhatrin putran pautran sakhin sada swasuran suhridas chaiva senayor ubayor api tan samiksha sakaunteya sarvan bandhum avastitan kripaya paraya vishto visidan idam abravit arjuna vacha drishtemam svajanam krishna yuyutsum samupastitam siddhanti mama gatrani mumukam cha parishushyati vepatuscha sharire me romahashascha jayate gandivam shamshate hastatva vashaiva paridayate nacha shaknomi avastatum brahmati vachame manaha nimitani cha pasyami viparitani keshava nacha shreyana pasyami hatva svajana mahave nakamshe vijayam krishna nacha rajam sukani cha kim narajena govinda kim bogar jivitena va yesha marte kanchitam no rajam bogar sukani cha taime vasita yudde pranam styakva danani cha acharya pitara putras tadaiva cha pitamaha madhula svashura pautra sarala sambandhinastata etanna hantum icchami natopi madhusudana apitrailokya rajasya heto kim nu mahi krite nihatya dashtarashtanna kapitisyas janardana papameva shayedasman hatvairanatadaina tasmanata vayam hantum dhritarashtan sabandavan svajanam hi katam hatva sukhina shyama madhava yadyapyetena pasyanti lobopahata cetasah kulakshaya kritam dosham mitra drohe cha patakam katam nagyeyam asmabhi papadasmani vartitum kulakshaya kritam dosham rashasyad virjanardana kulakshaye pranashyanti kula dharma sanatanaha dharme arashe kulam krishnam adharmo vivavat yuta adharma vivavat krishna padushyanti kulasriya strishu dushtashu vashneya jayate varna shankaraha shankaro narakaya eva kulam nanam kulasya cha patanti pitaro yesham lukta pindo nakakriyaha dosharita kula gnanam varna shankara karakai ucharyante jati dharma kula dharma shashvataha ucharna kula dharma nam manushyanam janardana narake niyatam vaso bhavati tanushushrama aho vata mahat papam kartum vyavasita vayam yadraja sukhalobena hantum svajanam udyata yadi mama patikaram ashastram shastrapanaya dhatrashtarani hanyustane shematram bhavet sanjaya uvacha eva mukta varna sankhye rato pasta upavishat visrijya sasharam chapam shoka samvigna manasaha sanjaya vacha tamnata kripaya vishtam ashru purna kulekshanam vishidantam idam vakya uvacha madhusudana shri bhagavan vacha udhastva kasmalam idam vishame samupastitam anaya jushtam asvagyam akirikaram arjuna klavyam asmanam aparta naitatva yupapadyate shudram hridaya dorvayam thayatthatishta parantapa arjuna vacha katam vishma mahasankhye dronam cha madhusudana ishubhi pratiyoshyami pujarha varisudana guruna mahatva imahanubhavan shreyo bhoktum vaikshanabhi aloke अद्वार्तकामान् सुगुरुर्निधायवा पुंजीय भोगान् रुधिरा प्रदिगान् नचाय तद्विद्मा कतरान् न गवीय यद्वा जयेमा यदि वा नो जयेयु यानेव हत्वा न जुजीविषामस्तेवा स्थिता प्रामुखे धार्तराष्ट्रा कार्पाण्यदोषो हता स्वभावः पृच्छामि त्वाम् धर्मसम्बुधचेतः यच्छ्रेयस्यान्निश्चितम् ब्रूहितान्मे शिष्यस्तेऽहम् शालिमाम् त्वाम् रपाणाम् न हि प्रपश्यामि ममापनुद्याय शोकमुशोषणमिन्द्रियाणाम् अवाप्य पुमावसपद्मृद्धम् राजम् सुराणामपि चाधिपत्यम् सञ्जर्वाच एवमुक्त्वा ऋषिकेशाम् गुदाकेश परन्तः नयोषयि गोविन्दामुवाचुष्मबभुवः तमुवाच ऋषिकेश प्रसन्निमवार्तनयोर्वयोर्मध्ये ऋषिदन्तामिदम् वच श्रीभगवानुवाच अशोचानन्दशोचस्त्वाम् प्रज्ञावारांशवासे गतशृणगतशृंशानानुशोचन्ति पण्डिताः न त्वैवाहम् जातुनाशम् न त्वम् नेमे जनाधिपा न चैव न भविष्यामः देहिनोऽस्मिन्निकादेहे कुमारम् यौवनम् जरात् तथा देहान्तराप्राप्तिर्गिरस्तत्र न मुह्यति मातरस्पर्शसुखम् देयाश्रीकृष्णसुखदुःखदा आरमापायिनो नित्यास्ताम् स्थितिक्षवभारत यम् हि नायन्त्येते पुरुषम् पुरुषर्षभ समदुःखसुखम् धीरम् सौमृतत्वाय कल्पते ज्ञानसुतो विदते भावो नावो विद्यते सतः उभयोरपि दृष्टोन्तास्तमाय सप्तदर्शिभिः अविनाशी तु तद्विधि येन सर्वमिदम् ततम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति अन्तरन्तार्ये देहा नित्यशोकशरीरिणा अनाशिनो प्रमेयस्य तस्माद्विजस्वभारत य इनाम् व्यतिहन्तारम् यश्चैनम् मन्यते हतम् उभावतौ न विजानीतो नयम् हन्ति न हन्यते न जायते म्रियते वा कदाचिन् नयम् भूत्वाय अजो शाश्वतो यम् पुराणो न हन्यते हन्यमाने शरीरे वेदाविनाशिनम् नित्यम् यायिनामर्जमव्ययम् कथम् स पुरुषवर्धकम् ज्ञातयन्ति हन्तिकम् वासाम् श्रीजीर्णानि यदा विहाय नवानि गृह्णाति नरो पराणि तदा शरीराणि विहाय जीर्णानि अन्यानि शम्याति नवानि देहि नयनम् छिन्दन्ति शस्त्राणि नयनम् दहति पाकः न चैनम् क्लेदयन्त्यापो न शोषयति मार्गः अच्छेद्योऽयमदायोऽयम् अक्लेद्यो शोष एव च नित्या सर्वगतस्तानुरचुरोऽयम् सनातनः अव्यक्तोऽयमच्छिद्योऽयम् अधिकायोऽयम् उच्यते तस्मादेवम् दलितवायिनाम् नाम् शोषितुमर्हसि अदशायिनाम् नित्यजाताम् नित्यम् वाम्यसेमृतम् तथापि त्वामहाबाहो नयनम् शोषितुमर्हसि जातस्याहिर्वृत्युर्वरम् जन्ममृतस्य च तस्मादपरिहर्ये हृदे न त्वाम् शोषितुमर्हसि अव्यक्तानि भूतानि व्यक्तमद्यानि वार्ता व्याव्यनन्यैव तत्र परिदेवन अश्चायवात्मश्रुतिकाशिरेणाम् अश्चायवद्वदति तथायव चान्या अश्चायवाचायनमन्या शृणोति श्रुत्वा केनाम् वेन न चायव कश्चित् Dehi nityam avadyayam dehi sarvasya bharata tasma sarvani bhutani natvam sochitumarsi svadharmam apichaveksha narikam pitumarsi tamyati yudyachreyonyachatriyasyana vidyate yadvishaya chopapannam svargadvaram apavitam sukhina kshatriya parta labhante yudham idrisham ata chettam imam dharmyam sangramam na karishyasi tatha svadharmam kirtim cha hitva papam avapsyasi akirtim cha pibhutani katyai shanti te vyayam sambhavitasya cha kirtir maranadatirikshate vayadranad uparatam amshyante tvam maharataha yesham cha tvam bahumato bhutvayasya silagavam avacha vadam cha bahun vadishyanti tavahitaha nindanvastava samartyam tato dukataram nukhim ato va prapsyasi svargam jitva va bokshyase manyam tasmadutishta kanteya yodaya kritanishchaya sukha duke same kritva labha labha jaya jayau tato yudaya yudyasya naivam papam avapsyasi esha te vihita sankye buddhir yoge timam shrinu Buddhya yukto yaya partha karma bandham rahasyasi Neha vikrama nashosi pratyavaya manavidyate Svapam apyasya dharmasya prayate mahato vayat Vyavasayatmika buddhi ekeva kurunandana Bahushakayanandasya buddhayo vyavasayanam Yam imam pushvitam vacham bhavadantya vipashitaha vedavararatha partha nanyara shriti vadinaha kamatmana svargapara janma karma palapradhan kriya vishesha bhavulam bhogaishvarya gatimprati bhogaishvarya prasaktanam taya paritha chetasam vyavasayatmika buddhi samadavna vidiyate Traigunya visaya veda nisraigunya bharajna nirvanvo nitya satvasto niryoga kshema atmavan yavanartha uvapane sarvata samhrutodake tavan sarveshu vedeshu ramanasya vijanataha Karmanyevatikaraste mahapaleshu kadachana Makarma falahe durgur mate sangosva karmani Yogastha guru karmani sangam tyakvadananjaya Siddhya siddhyo samobhutva samatvam yoga uchate Durena hi avaram karma buddhi yoga dananjaya Buddha sharanam anvishcha kripana palahetava Buddhi yukto jahati ha ube sukrite duskrite tasma yogaya yujasva yoga karma sukhaushalam karma jam buddhi yukta hi palam tyakva manishinaha janma bandha vinirmukta padam gachanti anamayam yada te mohakalilam buddhir vyatitarishyati tada gandhasi nirvedam sratavyasya srutasya cha shruti vipratipannate yadastashyati nishchala samadha vachala buddhis tada yogam avapsyasi arjuna vacha stita pragasya kavasya samadhyastasya keshava stita dhityam prabhasheta kimasita vrajeta kim sri bhagavan vacha rajahati yada kaman sarvan karta manogatan atmani evatmana tushta stita pragyasta docchete dukeshan udvigna manaha sukhecha vigata spriha Pintaragavaya krodha stita dhirmuniruchate yasarvatrana vishneha stathat prapya subhashubham naminandati nadveshti tasya pragya pratishtita yada sangharate chayam kurmongani vasarvasaha इन्द्रियाणीन्द्रियाभ्यस्तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिना रसवाज्यम् रसोऽप्यस्य परम् दृष्ट्वा निवर्तते यतदो हि अपि कौन्तेया पुरुषस्य विपश्चितः इन्द्रियाणि कर्मादीनि हरन्ति प्रसवम् मनः तानि सर्वाणि संयम्य युक्तासीतमत्परः वासे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायितो विषयम् पुंसा सङ्गस्तेषुपजायते सङ्गसञ्जायते कामा कामक्रोधो विजायते क्रोधाद्भवति समोहा समोहा स्मृतिविभ्रमा स्मृतिपमुषात् बुधिनाशो बुधिनाशात् प्रणश्यति प्रागतेश विमुक्तस्तु विषयानिन्द्रियश्चरन् आत्मवाश्यर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखानाम् हानिरस्योपजायते प्रसन्नचेतसो यासु बुद्धिपायावतिष्ठते नास्ति बुद्धिर्युक्तस्य न चायुक्तस्य भावना न चाभवायत शान्तिरशान्तस्य कुतः सुखम् इन्द्रियाणाम् हि चरताम् यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञाम् वायुर्नाभमिवम्बसि तस्माद्यस्य महाबाहो निर्गतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता यानि सर्वभूतानाम् तस्याम् जागाति संयमि यस्याम् जागाति भूतानि सानि शापश्यतो मुने अपूयमानाम् मचला प्रतिष्ठाम् समुद्रमापा प्रविशन्ति यद्वत् तद्वात् कामयाम् प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामि विहाय कामान्य सर्वान् पुमांश्चति निःस्पृह निर्मामो निरहङ्कार स शान्तिमधिगच्छति एषा प्राणी स्थिति वार्ता नयनम् प्राप्य विमूयति स्थितवासमन्तकालेऽपि ब्रह्म निर्वाणम् ऋच्छति अर्जुनोवाच ज्ञायसि चेत् कर्मणस्ते मथा बुधिर्जनार्दन तत्किम् कर्माणि गौरे माम् योजायसि केशव यामृषेणेव वाक्येन बुधिमोहायशिव मे तदधिकम् वद निश्चित्यायेन श्रेयो नाप्नुयाम् श्रीभगवान् वाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया न गा ज्ञानयोगेन सज्ञानम् कर्मयोगेन योगिनम् न कर्माणाम् अनारम्भान् नैष्काम्यान् पुरुषो श्नुते न च संन्यसनादेव सिद्धिम् समाधिगच्छति न हि कश्चिक्षणमपि चतुतिष्ठायकृत् कार्यते कर्म सर्वप्रकृतिर्जायधुनाय कर्मेन्द्रियाणि संयम्यायास्ते मनसा स्मरन् इन्द्रियाणाम् विमुदात्मा मिथ्याचरा स उच्यते यस्येन्द्रियाणि मनसा नियारम्भागते अर्जुन कर्मेन्द्रियाय कर्मयोगामशक्ता च विशिष्यते नियतम् कुर्मु कर्म त्वाम् कर्मयोग्या कर्मणः शरीराय त्राविशते न प्रसिद्ध्यर कर्मणः कर्मणो यत्र लोकोऽयम् कर्म बन्धनाय तदर्थम् कर्म कौन्तेया मुक्तसङ्गसमाचर सायाज्ञा प्रजा शिष्ट्वा पूर्वाच प्रजापति अनेन प्रशविष्यद्वामेशकामदुक् देवान्वायतानेन ते देवा पालयन्त्वा परस्परम् भवायन्ता श्रेया परमवाप्स्यथ इष्टाङ्गोगानि भो देवा दर्शन्ते यज्ञभावितः हरदतामप्रदायभ्यो यो गुङ्क्तेन एव सा यज्ञाशिषाशिना सन्तो मुचन्ते सर्वकीर्दिशाय पुञ्जते ते भगवम् पापाये पचन्त्यात्मकारणात् अनार्भवन्ति भूतानि पजन्यादनसम्भवः यज्ञभवति पर्जन्यो यज्ञकर्म समुद्भवः कर्म ब्रह्मोद्भवम् इति ब्रह्माक्षरः समुद्भवम् तस्मात् सर्वगतम् ब्रह्मा नित्यम् यज्ञे प्रतिष्ठितम् एवम् प्रवर्तिताम् चक्रम् ननुवर्त्याथ हियव्य अगायोरिन्द्रिया रामो मोघपार्थ स जीवति यथा मरतिरेव स्यादात्मतृप्तश्च मानवः आत्मनैव सन्तुष्टश्च कायम् न विद्यते नैव तस्य कृतेनार्थो नेहान्तकश्चन न चास्य सर्वभूतेषु कश्चिदार्थव्यभाषयः तस्मादसक्त सततम् कार्यम् कर्मसमाचर असक्तो याचरम् कर्म परमाप्नोति पुरुषः कर्मणैव हि संसिद्धिम् अस्यता जनकादयः लोकसङ्ग्रहमेवापि सम्भ्रश्यम् कर्तुमर्हसि यद्याद् आचरति श्रेष्ठस्तद्देव गुरो जनः स यत्प्रमाणम् गुरुते लोकस्तदनुवर्तते न मे पार्थास्ति कर्तव्याम् त्रिषु लोकेषु किञ्चन नानवाप्तमवाप्तव्यम् पार्थ एव च कर्मणि यदि वायाम् जातु कर्णाय तन्द्रितः मम वाक्मनुवर्तन्ते मनुष्या पार्थ सर्वशः उच्छिदेयोर्मे लोका न कुर्याम् कर्म चेदहम् शङ्करस्य च कर्तस्याम् उपहानीयम् इमा प्रजः सकृता कर्माण्यविद्वांसो यथा कुर्वन्ति वार्ता कुर्याद् विद्वांसता शिक्षीर्षुलोकसङ्ग्रहम् न बुद्धिवेदम् जनयेद् ज्ञानम् कर्मसङ्गीनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्त समाचरन् प्राकृते क्रियमाणानि गुणाय कर्माणि सर्वशः अहङ्कारा विमूलात्मा कर्तामिति मन्यते तत्त्ववित्तु महाबाहो गुणकर्म विभागयो गुणागुणेषु वर्तन्त इति मत्वा न सर्जते प्रकृतिर्गुणसम्मुदा सर्जते गुणकर्मसु तान् कृष्णविदो मन्दान् कृष्णविना विचारयत् मायि सर्वाणि कर्माणि सन्न्यस्यात्मचेतसा निराशीर्णो भूत्वा युद्धविगतचरः यमेवमानवः सर्वान्वो न सूर्यो मुच्यन्ते कर्मभिः ये द्वेतादव्यसूयान्तो नानु तिष्ठन्ति मे मतम् सर्वज्ञानविभूतांशान् विदीनाष्टान् चेतसः सदृशाम् चेष्टते स्वस्या प्रकृते ज्ञानवानपि प्रकृतिन्यान्ति भूतानि निराः किम् करिष्यति इन्द्रियास्येन्द्रियास्यार्थे रागद्वेषव्यव्यसिताौ तयोर्नवशमगच्छेताौ यस्य परिपन्थिनौ श्रियाम् स्वधर्मो विगुणा परधर्मात्मनुषिता स्वधर्मे ददनम् श्रेया परधर्मो भयावः अर्जुन उवाच अथ केन प्रयुक्तोऽयम् पापम् चरति पुरुषः अनिच्छानपि वर्ष्णेया बालादिव नियोजितः श्रीभगवान् उवाच काम एष क्रोध एष रजोगुणसमुद्भवः महाशनो महापाप्मा विद्येनामिह वायुनम् देवानीयदाशोमलेन च यतो वेनावृतो गर्भस्तथा तेनिदमावृतम् आवृतम् ज्ञानमेतेन ज्ञानिनो नित्यवायिना कामरूपेण कौतेय दुष्वरेण नलेन च इन्द्रियाणि मनोबुद्धिरविद्यामुच्यते एतद्विमोहयद्येषा ज्ञानमावृत्य देहिनाम् तस्मात् त्वामिन्द्रियाण्यादौ नियम्यापरथर्षभा पापानाम् रजहीयेनाम् ज्ञानविज्ञाननाशनम् इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परम् मनः मनसस्तु परा बुद्धिर्यो बुधे परतस्तु सः एवं बुद्धे परं बुद्ध्वा संस्तव्यात्मानमात्मना यहि शत्रु महाबाहो कामरूपं दुराशनाम् श्रीभगवानुवाच इमां विवस्वते योगां प्रोक्तवानहमव्ययं विवदवान् मनवे ग्राहान्मनुरिष्वाकदेवविद् एवं परम्परा प्राप्तां इमां रजर्षयो विदुः सकालिनेहमतथा योगो नष्टः परन्तप सर्वायां मया तेज्या योगः प्रोक्ता पुरातना भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः कथमेव विजानीयं त्वमादौ प्रोक्तवानिति श्रीभगवान् उवाच बहूनि मे व्यथितानि जन्मानि तव चार्जुनात्तान्यहं वेद सर्वाणि न त्वं वेद परन्तप अजोऽपि सन् अव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वावधिष्ठाय सम्भवाम्यात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युतानां धर्मस्य तदात्मनां सृजाम्यहम् पवित्रानाय साधूनां विनाशाय च दुष्कृतां धर्मान् संस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्यामेवाम्यो वेति तत्त्वतः त्यक्त्वादेहान्पुनर्जन्म नैति मामेति स्वार्जुन बहवो ज्ञानतपसा भूतामद्भावमागतः ययतामापद्यन्तेतदाम् महाभाग्मानुवर्तन्ते मनुष्यपाठ सर्वशः कक्षन्ता कर्मणां सिद्धिरचरन्तैवतः क्षिपां हि मनुष्ये लोके सिद्धिर भवति कर्म च चतुर्वर्णमया शिष्टां पुनः कर्मणा विभागशः तस्य कर्तारमहीमां विद्याकर्तारमव्ययम् न मां कर्माणि लिम्पान्ति न मे कर्म फले स्पृहा इति मां यो विजानाति कर्मभिर्नाश बाध्यते एवं ज्ञातकृतं कर्म पूर्वरपि मुमुक्षुभिः कुरु कर्म एव तस्मात् त्वं पूर्वाय पूर्वतरं कृतम् किं कर्म किमकर्मेति कवयोऽप्यत्र मोहितः तद्यते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षशेषुवत् कर्मणो यापि बोधव्यम् बोधव्यम् च विकर्मणः अकर्मणश्च बोधव्यम् गहनाकर्मणो गतिः कर्मण्यकर्म या पश्येदकर्मणि च कर्मया स बुद्धिमान् मनुष्येषु स युक्त कृत्स्नकर्मकृत् यस्य सर्वे समारम्भा कामसङ्कल्पवर्जितः ज्ञानाग्निदग्धकर्माणां कामाहुबान्धिताम्बुधः त्यक्त्वा कर्मफलसङ्गां नित्यतृप्तो निराश्रयः कर्मण्यपि प्रवृत्तोऽपि नैव किञ्चित् करोति स निराशीर्यतचितात्मा यः सर्वपरिग्रह शरीरं केवलं कर्म कुर्वन्नाप्नोति कीदृशम् यादृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः समासिद्धावसिद्धौ च कृत्वा निनानि बध्यते यतसङ्गस्य मुक्तस्य ज्ञानवस्थितचेतसः यज्ञाचरतरः कर्म समग्रहम् प्रगृह्यते ब्रह्मार्पणम् ब्रह्महवीर्ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्मैव तेन गन्तव्यम् ब्रह्म कर्म समाधिनम् तैमेवापरे यज्ञम् योगिना पर्युपासते ब्रह्मणः ॐ अपरियाज्ञान् यज्ञेनायोपजुवति श्रोतारिन्द्रियाण्ये संयज्ञाशुजुवति शब्दान् विषयानान्यानि शुजुवति सर्वेन्द्रिया कर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगज्ञो जुवति ज्ञानदीपिते यज्ञस्तपो यज्ञायोगायज्ञस्ततापरा स्वाध्याय ज्ञानयज्ञाश्चाद्यदाता संशिताव्रतः अपने जुवति प्राणाम् प्राणे पानाम् तथा परे प्राणपानगतिरुद्वा प्राणयामपरायणः अपरे नियताहारा प्राणान् प्राणेषु जुवति सर्वेभ्येते यज्ञवितो यज्ञशपितकल्मषः यज्ञशिष्टामृता भुजो यान्ति ब्रह्म सनातनम् एवं बहुविधा याज्ञा वितता ब्रह्मणमुखे कर्मजान् विदितान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे श्रेयान् द्रव्यमया याज्ञा ज्ञानयज्ञा परन्तप सर्वाङ्गाणां किलं पर्ता ज्ञाने परिसमाप्यते तद्विधि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः यज्ञात्वा न पुनर्मोहमेवम् यास्यसि पाण्डव येन भूतान्यशेषाणि द्रक्ष्यस्यात्मान्यतोमयि अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृतमः सर्वम् ज्ञानप्लवेनैव विष्णाम् सन्तरिष्यसि यथा इदांसि समिदग्निर्भस्मसत् कुरुतेऽर्जुन ज्ञानाग्नि सर्वकर्माणि भस्मसत् कुरुते तथा न हि ज्ञानेन सदृशम् पवित्रमिह विद्यते तत्स्वयम् योगसंसिद्धा कालेनात्मनि विन्दति श्रद्धावारभते ज्ञानम् तत्परा संयतेन्द्रियः ज्ञानम् लब्ध्वा परम् शान्तिम् आचिरेणागिरच्छति अज्ञश्च श्रद्धदानश्च संशयात्मा विनश्यति नायम् लोकोऽस्ति न परो न सुखम् संशयात्मनः योगसंन्यस्तकर्माणाम् ज्ञानसञ्चिन संशयम् आनवन्तम् न कर्माणि न वर्णन्ति धनञ्जय तस्मादज्ञानसम्भूतम् हृत्साम् ज्ञानासीनात्मनः चित्वायनाम् संशयम् योगम् अचिष्टोतिष्ठ बाला अर्जुनवाच संन्यासाङ्गानाम् कृष्णा पुनर्योगम् च संशसि यश्रेयाय तयोरेकम् तन्मे रुवमि सुनिश्चितम् श्रीभगवानुवाच संन्यासकर्मयोगश्च निःश्रेयश्चाभुवौ तयोश्च कर्मसन्न्यासात् कर्मयोगो विशिष्यते येयश्च नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति निर्द्वन्द्वो महाभावो सुखम् बन्धात् प्रमुच्यते सङ्ख्ययोगा पृथक् बाला प्रवदन्ति न पण्डितः एकामाप्याश्रितसंज्ञाद्भुतयोर्विन्दते फलम् यत्सङ्ख्याय प्राप्यते सानाम् योगायापि गम्यते एकम् सङ्ख्यम् च योगम् च यः पश्यति स पश्यति संन्यासस्तमहाबाहो दुःखमाप्तुमयोगतः योगयुक्तो मुनिर्ब्रह्मा न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मा भूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति युक्तो मन्ये तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वरन् श्वसन् प्रलभन् विश्वजन् गृहान् उन्मिषन् निमिषमपि इन्द्रियानिन्द्रियादेषु अटन्त इति धारयन् ब्रह्मण्यादाय कर्माणि सङ्गम् त्यक्त्वा करोति या विद्यादेन स पापेन पद्मपत्रमिवाम्बस
कायना मनसा पूज्या केवलायणेन्द्रियायपि योगिना कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये युक्ता कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्टिकीम् अयुक्तकामकारेण फले शक्तो निबध्यते सर्वकर्माणि मानसा संन्यस्यास्तेषु कामसि नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् कर्माणि लोभस्याश्युचति प्रभु न कामभवस्तु प्रवर्तते नादते कश्चित् पापं न चैव सुकृतं विभुः अज्ञानेनापितं ज्ञानं ते मामुयान्ति जान्तवः ज्ञानेनाचु तदज्ञानं येषां नाशितमात्मनः तेषामादित्य ज्ञानं प्रकाशयति तत्परम् तद्बुधयष्टदधानानाष्टानिष्ठस्तत्परायणा दक्षशया पुनरावृतं ज्ञाननिरुद्धदर्शः विद्यविनाय समाने रामणे रविदृष्टिनि सुनिचार स्वपाठे च पण्डिता समदर्शिनः इहैव तैर्जितः सर्गो येषां समेषि ब्राह्मणः निर्दोषं हि समं ब्रह्मा तस्माद्ब्रह्मणिते शिरः न प्रविश्यत् प्रियं प्राप्य नो द्विजत् प्राप्य चाप्रियम् स्थिरबुद्धिरसमुदो ब्रह्मणि स्थिता बाह्यस्पर्शेश सर्गात्मा विन्दात्यात्मानि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते यै संस्पर्शया भोगा दुःखयो नय एव ते अद्यन्तवन्तकौन्तेया न ते शूयते बुधा शक्नोतीतायव यशोधुं प्राक्शरीरा विमोक्षणात् कामक्रोधोद्भवं वेगं संयुक्तः स सुखी नरः योऽन्तः सुखोऽन्तरा रामस्तथान्ता ज्योतिरेव या स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति लभन्ते ब्रह्मनिर्वाणं ऋषयः शिनकल्मषः शिनादयनाद्यमाना सर्वभूतहिते रतः कामक्रोधविमुक्तानां यतीनां यतचेतसाम् अधितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुषैवान्तरे भो प्राणपाणा समाकृत्वा नासाभ्यन्तरचारिणौ यचेन्द्रियामनोबुद्धे मुनिर्मोक्षप्रायणः विगाते चावयरोदो यः सदा मुख एव स भोक्तराम् यज्ञतपसां सर्वलोकमहेश्वरम् सूर्यां सर्वभूतानां ज्ञात्वां शान्तिमिच्छति श्रीभगवानुवाच अनाश्रितकर्मफलं कायं कर्म करोति यः यं संन्यासमिदराहुर्योगं तं विधि पाण्डव न यन्यस्य सङ्कल्पो योगी भवति कश्चन अररुषोर्मुनियोगं कर्मकरणमुच्यते योगस्य तस्यैव समकरणमुच्यते यदायतेषु न कर्मस्वानुसर्जते सर्वसङ्कल्पसन्न्यासी योगरुदश्चोच्यते उदरेदात्मनात्मानं नात्मानमवसादयत् आत्मा एव हि आत्मनो बन्धुरात्मा एव विपुरात्मना बन्धुरात्मनस्तस्य येनात्मा एव आत्मना जिता अनात्मनस्तु शत्रुत्वे वर्तेतात्मा एव शत्रुवत् जितात्मना प्रशान्तस्य परमात्मा समाहिता शीतोष्णसुखदुःखेषु तथा मनापमानयो ज्ञानविज्ञानतीर्थात्मा कुतस्थो विजितेन्द्रिय युक्त इत्यक्षते योगी समलोत्राश्मकञ्चन सूर्यन्मित्रायुदासीना मध्यस्था द्वेषबन्धुषु साधुष्वापि च पापेषु समबुद्धिर्विशिष्यते योगी युञ्जित सततमात्मानं रहसि स्थिता एकाकी यत् चिदात्मा निराशिरा परिग्रह शुचौ देशे प्रतिष्ठाप्या श्रीरमासनमात्मनः न जुष्येतम् नाभिनिचम् चालज्ञिना सुश्रोतरम् तद्वैताग्रमणा कृत्वा यतचिदेन्द्रियक्रिया उपाविश्वासने युञ्जात् योगमात्मा विश्रुतये समामराय शिरोग्रीवाम् दयानचलम् स्थिरा संवृक्ष नाशिकाग्रम् स्वम् दिशश्चानवलोकयम् प्रशान्तात्मा विज्ञातव्यब्रह्मचारी व्रते स्थिता मनः संयम्यमचित्तो युक्ता शिखमत्परः युञ्जानेवाम् सदात्मानाम् योगी नियतमानसः शान्तिम् निर्वाणपरमाम् मत्संस्थामधिगच्छति नित्याश्नन्दास्तु योगोऽस्ति न चैकान्तमर्नाश्नतः न चाति स्वप्नशीलस्य जागृतो नैव चार्जुन युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा नियतम् चित्तमात्मान्येवावितिष्ठते निष्क्रियः सर्वकामेभ्यो युक्त इत्युच्यते तदा यथा दीपो निवातस्थो निङ्गते सोपमास्मिता योगिना यतचित्तस्य युजतो योगमात्मनः यत्र रमते चित्तम् निरुदम् योगसेवया यत्र शैवात्मनात्मानम् पश्यनात्मनि तुष्यति सुखमद्यानि गम्यद्बुद्धिग्रायमतीन्द्रियम् वेति यत्र न शैवायम् विशराश्चलति तत्तरः यम् लब्ध्वा चरम् लाभम् मन्यते नाधिकम् तथा यस्मिन् स्थितो न दुःखेन गुरुणापि विचार्यते तम् विद्या दुःखसंयोगाभियोगाभियोगसङ्गीतम् स निश्चयेन युक्ताव्यो योगो निर्विनचेतसा सङ्कल्प प्रभवान् कामान् त्यक्त्वा सर्वान् शेषतः मनसैवेन्द्रियग्रामान् विनियम्या समन्ततः शनाय शनाय रूपरमेद्बुद्ध्या धृतिगृहीतया आत्मसंस्थामना कृत्वा न किञ्चिदपि चिन्तयत् यतो यतो निश्चलति मनश्चलमस्थिरम् स्पर्शम् अत्यन्तम् सुखमश्नुते सर्वभूतसमात्मानम् सर्वभूतानि चात्मनि ईशते योगयुक्तात्मा सर्वत्र समदर्शनः यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति तस्याहम् न प्रणश्यामि स च मे प्रणश्यति सर्वभूतस्थितम् यो माम् भजत्यथत्वनामस्थितः सर्वथा वर्त्मनोऽपि स योगी मयि वर्तते आत्मावपम् येन सर्वत्र समम् पश्यति यो अर्जुन सुखम् वा यदि वा दुःखम् स योगी परमो मतः अर्जुन वाच योगाम् योगस्त्वया प्रोक्ता साम्या मधुसूदन एतस्याहम् न पश्यामि चञ्चलत्वात् स्थितम् स्थिरम् चञ्चलम् हीमना कृष्णा प्रमाति बलवद्धृतम् तस्याहम् निग्रहम् मन्ये वायोरिव सुदुष्करम् श्रीभगवान् वाच असंशयम् महाबाहो मनो दुर्निग्रहम् चलम् अभ्यासेन तु कौन्तेया वायाग्येन च क्रियते असंज्ञेतात्मना योगो दुष्प्राप्या इति मे मति वश्यात्मना दूयतता सक्तो वाप्तुमुपायतः अर्जुन उवाच आयति श्रदयोपेतो योगचलितमानसः अप्राप्य योगसंसिद्धिम् काम् गतिम् कृष्ण गच्छति कच्छिन्नोगाय विभ्रष्टश्चिना ब्रह्मेव नश्यति अप्रतिष्ठो महाबाहो विमुदो ब्रह्मणपति एतान्मे संशयम् कृष्णाच्चतुमर्हस्य शेषतः त्वदन्या संशयस्यास्य चेतना हि उपपद्यते श्रीभगवानुवाच नैवेह नामुत्रा विनाशस्तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिम् तात गच्छति प्राप्य पुण्याकृतां लोकान् भूषिता शाश्वती समः शुचीनां श्रीमतं गेहे योगवशतो विजायते अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभमतरं लोके जन्म यदि दृशम् तत्र काम्बुजि संयोगम् भवते पौरवतेकम् यत् ते च ततो भूया संसिदा कुरु नन्दन पूर्वाभ्यासेन तेनैव क्रियते यवसोऽपि सा जिज्ञासुरपि योगस्य शब्दभ्रमातीत पठ्यते प्रयत्नाद्यत्रमानस्तु योगी संश्रुतकिल्बिष अनेकजन्म संसिदा सतो याति परां गतिम् तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि महतोऽधिका कर्मभ्यश्चाधिको योगी तस्मात् योगी भवार्जुन योगिनामपि सर्वेषां मन्दतिनिरन्तरात्मना श्रद्धवान् भजते यो मां सर्वयुक्ततमो मतः श्रीभगवान् वाच माया सक्तमनापर्ता योगं युञ्जन्मराश्रय असंशयं समग्रह्मां निधाय शासि तच्छृणु ज्ञानं तेऽहं सविज्ञानम् इदं वक्ष्यामि शेषतः यज्ञात्वा नेह भूयो याज्ज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद् यत् दिशिदये यत् तामापि सिद्धानां कश्चिन्मां वेति तत्त्वतः भूमिरपो नलो वायु कमनो बुद्धिरेव च अहङ्कारम् इत्यमे भिन्ना प्रकृतिरस्तदा अपार्यम् इतस्त्वन्यम् प्रकृतिम् विधि मे परम् महाबाहो येदाम् दायते जगत् एतानि भूतानि सर्वनीत्युपधारय अहम् कृष्णस्य जगता प्रभव प्रलयस्तथा मतः परतरम् नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदम् प्रोक्तम् सूत्रे मनिगना इव रसोऽहमप्सु कौन्तेया प्रभास्मि शशिशूरयो शब्दके पौरुषन्निषु पुण्यो गन्धा पृथिव्यम् च तेजश्चास्मि विभावसौ जीवानाम् सर्वभूतेषु तपश्चास्मि तपस्विषु बीजानाम् सर्वभूतानाम् विधिपार्थ सनातनम् बुधिर्बुधिमतम् अस्मि तेजस्तेजस्विनामहम् बलम् बलवतम् चाहम् कामराग विवर्जितम् राम विरुद्ध भूतेषु कामोऽस्मि पार्थशव ये चैव सात्विका भाव राजसास्तामसाश्च ये मत एवेति तान् विधि नत्वाहम् तेषु ते मयि त्रिभिर्गुणमयाय भावैरेवि सर्वमिदम् जगत् मोहितम् नाभिजानाति मामेभ्य परमव्ययम् दैवीयेष गुणमयि मम माया दुरत्य मामेव ये प्रपद्यन्ते मायामेताम् तरन्ति ते नमाम् दुष्कृतिनो मुदा प्रपद्यन्ते नरादमः मयाय परित ज्ञान आसुरम् भावमाश्रिता चतुर्विधा भजन्ते माम् जनासु कृतिनो अर्जुन अर्थो जिज्ञासुरार्थार्थी ज्ञानी च पार्थर्षभा तेषाम् ज्ञानी नित्ययुक्ता एक भक्तिर्विशिष्यते प्रियो हि ज्ञानिनोऽत्यर्थम् अहम् स च मम प्रिय उदार सर्व एवैते ज्ञानित्वात्मा एव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमाम् गतिम् बहुनाम् जन्मनाम् मन्त्रे ज्ञानवम् माम् प्रपद्यते वासुदेव सर्वमिति स महात्मा सुदुर्लभः स्थैस्थैर्वृतज्ञान प्रपद्यन्ते न्यदेवतः तम् तम् नियममाश्रय प्रकृत्या नियतस्वय यो यो यम् यम् तनुम् भक्ता श्रद्धार्चितुम् इच्छति तस्य तस्याचलम् श्रद्धाम् तामेव विदधाम्यहम् सतया श्रदया युक्तास्तस्य राधनमीहते लभते च तदा ग्रामान् मया एव विहितान् हितान् antavattu phalante shanta bhavati alpamedasam devan devayatro yanti madbhakta yanti mamapi avyaktam vyaktimapanam manyante mama buddhaya param bhavam jananto mama vyayamanuttamam naham prakasha sarvasya yoga maya samavita mudoyam nabhi janati loka mama jamavyayam vedaham samatitani bhavishani cha vardhina bhavishani cha bhutani mantu vedana kaschana isha dvesha samudena dvandva mohena bhartha sarva bhutani sammoham sargiyanti parantapa yesham tvantagatam papam jananam punya karmanam te dvandva moha dhirmukta bhajante dvam dridavritaha jara marana mokshaya mama sritya yatantiye te brahma tad vidu krishnam adhyatmam karma chakilam sadi bhuta di daivam mam svadi yagyam cha ye vidu prayana kale bhija mam te vidur yukta chetasaha arjuna vacha kim tad brahma kim adhyatmam kim karma purushottama adibhutam cha kim proktam adidaivam kim uchyate adiyagya katham kotra dehismin madhusudana prayana kale cha katham geyosi niyatatmabhi shri bhagavan uvacha aksharam brahma paramam svabhavo dhyatmam uchyate bhuta bhavo bhavakaro visarga karma sangitaha adibhutam kshara bhava purushaschadi daivatam adiyagyo ham evatra deha dehe vrittam vara antakale cha mameva smaran mukva kalevaram ya prayati samad bhavam yati nashtyatra sanshayah yam yam vapi smaran bhavam tyajati ante kalevaram tam tam evaiti kaunteya tadat bhava bhavitaha tasmat sarveshu kaleshu mamanu smara yudhya cha mayarpito mano buddhir mame vaishyashya sanshayah abhyasa yoga yuktena chetasa nanyagamina paramam purusham divyam yati parthanu chintayan kavim puranam anushastiranam anorniyangsham anusmar kavim puranam anushastiraram anoraniyangsam anusmaridya sarvasya dataram achintya rupam aditya varnam tamasa parastat prayana kale manasa chalena bhaktya yukto yoga balena chaiva bruhor madhi pranam avesha samyaksatam param purusham upaiti divyam yadaksharam veda vidavadanti vishanti yadyatyo vitaraga yadi chanto brahmacharyam charanti tate padam sangrahena pravakshe sarvadharani samyamya manovridhi nirudhya cha mudnyadyatmana panam astito yogadharanam om iti ekaksharam brahma vyaharan mamanusmaram yaprayati tyajam deham sayati paramam gatim ananya cheta satatam yomam smarati nityashaha tasyaham sulabha partha nitya yuktasya yoginaha mamupetya punarjanma dukhalayam ashasvatam nabnuvanti mahatmana saṃsiddhim paramam gatah abrahma bhuvana loka punaravrittinurjuna mamupetya dukhanteya punarjanma na vidyate sahasra yuga paryanta maharyat brahmana vidu ratrim yoga sahasratam teho hatra vidho janaha avyakta adhyaktaya sarva pravadyantyahar agame ratri agame priyante tatraiva vyakta sangyake
Bhutagramasa evaivam bhutva bhutva prayate pratyagame vasaparta bhavavatya haragame prastasmatu bhavanyo vyakto vyaktat sanatana yasa sarveshu bhuteshu nasachu navinashati avyakto kshara ityuktas tamahu paramam gatim yam prapya nani vartante tadama paramam mama purushasa paraparta bhaktya labhya strananyaya yasyantastani bhutani yena sarvamidam tatam yatra kale trana avitam avitam chaiva yogina prayatayanti tam kalam vakshami bharatashava agnir jyotiraha shukla shanmasa utarayanam tatra prayata gacchanti brahma brahma vidojanaha dumo ratristata krishna shanmasa dakshinayanam tatra chandrama samjotir yogi prapya nivartate shukla krishne gati yete jagata shasvate mate aikaya yatyana vittam anyaya vartate puna naite shuti parta janan yogi muyati kaschana tasmat sarveshu kaleshu yoga yukto bhavarjuna vedeshu yageshu tapasu chaiva daneshu yat punya palam pradishtam atyeti tat sarvam idam viditva yogi param stanu paiti chadyam shri bhagavan uvacha idam tu te guyatamam pravakshami anasuyave jnanam vijnana sahitam yagyatva mokshase shubhat Raja vidyam raja guyam pavitram idam uttamam pratyaksha vagamam dharmyam susuktam kartum avyayam ashrata dana purusha dharmasyasya parantapa aprapyamam nivartante mrityu sansara vartmani maya tatam idam sarvam jagadavyakta murtinam matstani sarva bhutani nachaham teshvavastitah Nacha matstani bhutani pasyame yogam aishwaram bhuta brinnacha bhutasto mamatma bhuta bhavanaha yathakashastito nityam vayu sarvatra go mahan tatha sarvani bhutani matstani ti upadaraya sarva bhutani kaunteya prakritim yanti mamikam kalpakshaye punastani kalpadau visrijami aham prakritim swam avastavya visrijami puna puna bhutagramam imam krishnam avasham prakriter vashat nachamam tam taniskarmani nibadnanti dananjaya udasina vadasinam asaktam teshu karmasu mayadhyakshena prakriti suyate sacharacharam hetunanena kaunteya jagat viparivartate avajananti mam mudda manushim tanumashritam param bhavam jananto mama bhuta maheshwaram mogasya moga karmano moga jnana vichetasaha rakshasim asurim chaiva prakritim mohinim shritaha mahatmanastu mam partha daivam prakritim ashritaha bhajanti ananya manaso gyatva bhutadim avyayam satatam kirtayanto mam yatantascha dridavrata namasyantascha mam bhaktya nitya yukta upasate jnana yajena chapyanye yajanto mamupasate ekatvena pritaktvena bahuda vishvato mukam aham kratur aham yajya svadaham aham aushadam mantra aham aham evajjam aham agnir aham hutam
pitanasyajagato
matadata pitamaha vedyam pravitim omkara rikshama yajurevacha gadir bharta prabhu sakshi nivasa sharanam surit prabhava pralaya sthanam nidhanam vijam avyayam tapamyaham aham varsham nigranamya utsrijamicha amitam chaiva mrityuscha sarasacham arjuna Trividyamam soma paputa papa yagyaishva svargatim prartyante te punyalasadya surendra lokam ashnanti divyam divideva bogan te tam bhukta svargalokam visharam shine punimartya lokam vishanti evam traidharma manupapanna gathagatam kama kama labante ananyas chintayanto mam ye jana paryupasate tesham nitya viluktanam yoga kshema vahamyaham ye pyanya devata bhakta yajante shadayanvita te pi mam eva kaunteya yajantya vidipurvakam aham hi sarva yajnanam bhokta cha prabhureva cha natu mama vijananti tatvinatas cha vanti te yanti deva vrata devan vitrin vanti pitruvrataha bhutani yanti bhuteja yanti madhya chinopimam patram pushpam dhanam toyam yome bhaktya prayachati tadaham bhakti paritam asnami prayatatmanaha yat kroshi yad asnasi yat joshi dadasi yat yat tapasyasi kaunteya tat krusha madarpanam shubha shubha falairevam mokshase karma bandhanai sanyasa yoga yuktatma vimukto mamupaisyasi samoham sarva bhuteshu name dveshosti napriyaha ye bhajanti tumam bhaktya maitete shuchapyam api chet sudaracharo bhajate mamananya bhak sadureva samantavya samyagvyavasitoisaha shipram bhavati dharmatma shashvachantim nigachati kaunteya prati janihi name bhakta pranashyati Mami partha vyapasrityas yepi su papa yonaya striyo vaishastata sudras tepi anti paramgatim kim punar brahmana punya bhakta raja shriyastata anityam asukham lokam imam prapya vajasvamam manmana bhava madbhakto madhyajimam namaskuru Māme vaiśyasi yuktaivam ātmānam matparāyana Śrī Bhagavānu vācha bhūyeva mahābhāho śrinume paramam vachaha yatteham priyamanāya vakṣyāmi hitakāmyaya name vidu suragana prabhavam namaharshayah Ahamadirhi devanam maharshinam cha sarvasaha yomama jamanadim cha vetiloka maheshwaram asamuda samartyeshu sarva papai pramuchyate buddhir jnanam asammoha kshama satyam damashama sukham dukham bhavo bhavo bhayam cha bhayam eva cha Ahinsa samata tushtis tapodanam yasho yasaha bhavanti bhava bhutanam mata eva prithag vidaha maharshaya saptapurve chasparo manavastata madbhava manasa jata yesham loka ima prajaha etam vibhutim yogam cha mamayo veti tatvataha So vikalpena yogena yujate natra shamshaya aham sarvasya prabhava mata sarvam pravartate iti matva prajante mam buddha bhava samanvitaha madchita madgata prana bodhayanta paraspadam katayantascha mam nityam tusyanti cha ramanti cha Tesham satata yuktanam bhajatam priti purvatam dadami buddhi yogam tam yenamam upayantite tesham evanukam partam aham agyana jantamaha नाशं यात्यावस्तो ज्ञानदीपेन बास्वतः अर्जुनवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम् अहो स्वाम ऋषयः सर्वे देवार्षिर्नारदस्तथा सीतो देवलो व्यासः स्वयं चैव ब्रवीषि मे सर्वमेतद्वितं मन्ये यन्मां वदसि केशव न हि ते भगवान् व्यक्तिं विदुर्देव न दानवः स्वयमेवात्मनात्मानं वेतत्वं पुरुषोत्तम भूता पावन भूतेश देव देव जगत्पते वक्तुमर्हस्य शेषेनात्मा विभूतया भाविर्विभूतिभिर्लोकानि मां स्त्वं व्यापतिष्ठसि कथं विद्यमहं योगिं स्त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योऽसि भगवान् मया विस्तरेणात्मनो योगं विभूतं च जनार्दन भूयाव कथय तृप्त हि शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच अन्तते कथयिष्यामि दिव्यायात्मा विभूतया प्रादयन्त कुरु श्रेष्ठा नश्यन्तो वितरस्य मे अहमात्मा गुदाकेश सार्वभूताशयस्थिता अहमादिश्च मायं च भूतानामन्त एव च अदित्यानमहं विष्णुर्ज्योतिषं रविरंशुमान् मरीचिर्मरुतमस्मि नक्षत्राणमहं शशि वेदानां सामवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना रुद्राणां शङ्करश्चास्मि विधेशो यक्षरक्षसाम् वासूनां पावकश्चास्मि मेरो शिकारिणामहम् पुरुषोदशां च शुकं मां विधिपार्थ बृहस्पतिम् सेनामिनामहं स्कन्दा सरसमस्मि सागर महर्षिणां भृगोराहं गिरामस्नमेकमक्षरम् यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय सर्ववृक्षाणां देवार्षिणां च नारद गन्धर्वाणां सितारथा सिदानां कपिलो मुनि उच्चैश्वावसमश्वानं विधिमाम् अमृतोद्भवम् खैरावतं गजेन्द्राणं नराणं च नराधिपम् आयुधानमहं वज्रम् प्रजनश्चास्मि कन्दर्प सर्पणमस्मि वासुकी अनन्तश्चास्मि नागानं वरुणो यादसमामम् पितृणामायमाचास्मि यमासं यमतमहम् प्रह्लादश्चास्मि दैत्यानं कालकल्यतमहम् मृगानां च मृगेन्द्रोऽहम् भैनतेयश्च पक्षिणाम् भावना पवतमस्मि रामशस्त्रभृतामहम् जजासं मकरश्चास्मि श्रोतसामस्मि जानवी सर्गानमादिरन्तश्च मध्यं चैवाहमार्जुन अध्यात्मविद्या विद्यानं बालप्रवर्धमहम् अक्षराणमकारोऽस्मि द्वन्द्वसमशिखस्य च अहमेव क्षयकालो दाताहं विश्वतो मुखा मृत्युर्हश्चाहम् उद्बलश्च भविष्यताम् कृतिश्रीर्वाक्चारिणम् स्मृतिर्मेधा द्वितीक्षमा बृहत्साम तथा साम्नाम् गायत्री छान्दसामहम् मासनं मार्गशीर्षोऽहम् ऋतुमं कुष्मकारः द्युतं चलायतमस्मि तेजस्तेजस्मि नामहम् जायोऽस्मि व्यावसायोऽस्मि सत्वं सत्त्वतमहम् ऋषीणां वासुदेवोऽस्मि पाण्डवानां धनञ्जया मुनीनामाप्यहं व्यास कविनामूषण कवि
Dando damayatamasmi nitirasmi jigishatam manam chayvasmi guryanam jnanam jnanavatamaham yaschapi sarva bhutanam vijatadaham arjuna natadasti vinashyasyan maya bhutan characharam nantosti mama divyanam vibhutinam parantapa esha tudesha tatra vibhuter vistaro maya yad yad vibhuti matsatvam srimarujitam evava
tat tat eva vaka chatvam mama tejo masa sambhavan atava
atava bahunaitena kim yatena tabarjuna vishtavya hamidam krishami kamshena stito jagat arjuna vaksha madanu grahaya paramam guyam adhyatma sangitam yatta yoktam vachastena mohyam vigato mama bhavapya yau hi bhutanam shrutau vishtarasho maya vata kamala patraksha mahatmyam apichavyayam eva metha jya atitvam atmanam parameshvara drashtumichami te rupam aishvaram purushottama manyase yadi tachakyam maya drashtumiti prabho yogeshvara tato metvam dashyat atmanam avyayam sri bhagavanu vacha pashyame partha rupani shatasota sahasvashaha nana vidani divyani nana varna kritini cha pasya dityan vasun ruddan asmina marutashtata bahunya drishta purvani pasya charyani bharata ihaikastam jagat kritsnam pasya dhyasa characharam mama deha bhutakisha dhyachanya drashtumichasi Sankshase drashtum aninaiva svachakshusha divyam dadami te chakshu pashyame yogamaishvaram sanjayu vacha eva muktata dorajan mahayogeshvaro harihi darshayama saparthaya paramam rupamaishvaram aneka vaktra nayanam aneka bhuta darshanam aneka divya paranam divya neko dayatidam divya malambara daram divya gandanulepanam sarvascharyamayam devam anantam vishvatomukam divisurya sahasrasya bhaved yuga padutidha yadi bhasa dushi sasyat bhasa stasya mahatmana tatraikastam jagat krishnam pravibhaktam anekada apasya deva devasya sharire pandavastada tadasa vishmam yavishto vishtaroma dananjaya pranamya shirasa devam kritanjali rabhasata Arjuna vacha pasyami devansh tava deva dehe sarvansh tatha bhuta vishesha sangan brahmanam isham kamalasanastam rishinsh cha sarvan uragansh cha divyan aneka bahudara vaktra netram pasyami tam sarvatonantarupam Nantam namadyam napunastavadim pasyami viveshvara vishvarupa kiritinam gadinam shakrinam cha tejarashim sarvato dittimantam pasyami tvam durnikshayam samanta dittanalarkadyutam aprameyam tvam aksharam paramam veditavyam Tvamasya visvasya param nidhanam Tvamavyaya shasvata dharma gupta Sanatanas tvam purusho madome Anadi madhyanta mananta viryam Mananta bahum shashi surya netram Pasyami tvam dipta hutasa vaktram Svateja savishramidam tapantam Daya prithivyo idam antaram hi vyaptam tyakvartam. vayaikina deshascha sarva drishva bhutam rupam ugram tevitam lokatvayam pravyatitam mahatman amiyaitvam sura sangha vishanti kechad vita pranjaleo gananti Svasti tyutva maharshi siddha sangha stuvanti tvam stuti vi pushkalabi rudra ditya vasavo yecha satya visveshvina marutas chosma pascha gandharva yaksha sura siddha sangha vikshanti tvam vishmitas chaiva sarve Rupa mahate bahuvatra netram mahabaho bahu bahura padam bahudaram bahudam strakaralam drishtva loka pravyatitastatalam abhaspisham diptam anekavarnam vyatananam dipta vishalanetram Drishtva hitvam bhavyatit antaratma dritam navindami samam cha vishno Dangshtra karalani chate mukani Drishtva eva kalanala sannibani Dishola jane nala vecha sarna prasida devesha jagannivasa Ami chatvam dhartarashtrasya putra Sarve sahai bhavani pala sangai Vishmotrana sutra putrastatasau Sahasma diyairapi yoda mukyai Vatrani cheta varamana vishanti Dangstra karalani bayana kani Kechil vilagna vyachanam tareshu Sandashante churnitar utamangai Yathanadinam bhavam kumbhigaha samudramevami mukadravanti Tathatavami naraloka viravishanti vatrani abhijalanti Yathapradiptam jalanam patanga vishanti nashaya samridavega Tathayva nashaya vishanti lokastadapi vakrani samridh vega Leliya segra samana samantal lokan samadran vedanar jalabhi Tejo bira purya jagat samadgram vashastavo gra pratapanti vishno Akyahi me bhokko bhavan ugravrupo Namostate deva vara prasida Vinyatum ichyami bhavantam adyam nahi prajanami tava pravittim Shri Bhagavan vacha Kalosmi lokakshaya krit pravriddo lokan samarhantum iha pravitta Vite pitvam na bhavishanti sarve yevaschita pratyanikeshu yodha Tasmatvam utishta yashola vasva jitva shatrun bhongshva rajam samriddham Maya eva laite nihata purvam eva nimitta matram bhava sarvya sashchim Dronam cha vishvam cha jayadratam cha karnam tatanyana piyodhya viran Mayahatam stram jahima vitishta yudhyasya jeta siranesa tapnan Gaya vacha eta shudra vachanam chesa asya kritanjila vepamana kiriti Namakshitvita bhuya eva krishnam sagad gadam bita bita pranamya Arjunuvacha stani hrishikesha tava prakirtya jagat prahrishyatya nurajyate cha Rakshansi vitani dishodravanti sarve namasyanti cha siddha sangha Kasmachyate na namiran mahatman Karishase brahmanopyat prikartre Anantade shakran divasat vanaksharam sarasat tat paramyat tvamadideva purusha puranas tvamasya visvasya param nidanam vedasi vedyam cha param cha dama tvaya tatam vishwamananta rupa vayuryam agnir varunasya sankha prajapati stvam pratimahatyascha namo namaste su saraskritah punascha bhuyopi namo namaste nama purastadata prashvitaste namo stute sarvata eva sarva ananta viryamita vikramastvam sarvam samatnoshitatosi sarva suketi matva prasavam yaduktam he krishna he yadava he saketi ajnata mahimanam tavedam maya pramadat pranayayana papi yachchavaha sartham asakritasi viharasayasana bhojaneshu ekotavapyachudatat samaksham tadshamayetvam ahamaprameyam pitasi lokasya charasharasya tvamasya pujascha gurur kriyan natvatsamostabhyadikakutonyo lokatrayepi apratima prabhava tasmat pranamya pranidayakayam prasadaye tvamahamishamidyam prideva putrasya sakeva sakyur priya priya yasi deva sodam adrishta purvam rishitasmi drishtva vayena cha pravyatitam manome tadeva me darshaya devam rupam prasida devesha jagannivasa kiriti nanda dinam chakrahastam ichami tvam drashtum ahantataiva tenaiva rupena chaturbhujena sahasra baho bhava vishvamurte Sri Bhagavan Vacha Maya prasannena tava junedam rupam param darshitam atma yogat tejo mayam vishvamanantam adyam yanme tvadanyena nadushta purvam na veda yagya dhyanair naduna nādanair na chākriyā virnātha po virugrai evam rupa sakya aham nrilokhe drashtum tvadanyena kuru pravira māte vyatamā vimudā bhavo drishvā rupam gauram idrinnamedam vyāpena vipritā manā punastvam tadeva me rūpam idam prapasya Sanjaya vāca iti arjuna vāsudevastatotvā svakam rūpam darśayamāsa bhūya asvāśayamāsa ca bhītamevam bhūtvā punasamya vapur mahātmā arjuna vāca Drishvedam manusham rupam tava samyam janardana idanim asmi samvritta sacheta prakritam gata Sri Bhagavan vacha sustur darshanam idam rupam drishtavan asmi yanmama devapyasya rupasya nityam darshanakankshina naham vedarna tapasa na danina na chejaya sakya evam vidho drashtum drishtavana simam yata bhaktya tvananyaya sakya hamidam vidho arjuna jnatum drashtum cha tatvena praveshtum cha parantapa mat karma krin mat paramo mat bhakta sangavarjitaha nirvaira sarva bhuteshu yasamameti panava Arjuna vacha evam satata yuktaye bhaktastvam paryupasate ye chapyaksham avyaktam te shankhe yoga vittamaha Sri Bhagavan vacha
Mayavesha manomeyam nitya yukta upasate shradaya parayopetas teke yukta tamamataha itvaksharama nirdesham avyaktam payupasate sarvatra gama chintayam cha kutastam achalam dhruvam saniyam yendriya gramam sarvatra samabuddhaya te prapnuvanti mameva sarvabhuta hiteirataha klesho dikataraste sham avyakta sakta chetasam avyakta higatir dukkam digabrat virabhapyate yetu sarvani karvani mahi sanyasya matparaha ananyenaiva yogena mahatmam dhyayanta upasate Teshamaham samuddhata mrityu sansara sagarat bhavamina chirat partha maya veshita chetasam mayeva mana adasva mayi buddhim niveshaya nivasishasi mayeva atavurdvam nasanshayaha atachitam samadhatum nasatnosi mayistiram Abhyasi yogena tato mami chaptum dananjaya Abhyase piya sammartosi mat karma paramo bhava Madartam api karmani kurvam siddhim avapsasi Athayetadapya saktosi kartum mad yogam ashritaha Sarva karma palatyagam tata kuru yatatmavan Shreyo hi jnanam avyasaj jnanat jnanam vishishyate jnanat karma palatyagas tyagat chantiranantaram adreshta sarva bhutanam maitra karuna evacha nirmamo nirahankara samadukha sukhashrami santushta satatam yogi yathatma drudanishchayaha Mayarpita mano buddhir yomad bhakta same priyaha yasman no dvijate loko lokan no dvijate chaya harsha marsha payo degair mukto yasa chame priyaha anapeksha suchaya daksha dasino gata vyataha sarva ramba paridyagi yomad bhakta same priyaha Yo na hrishyati na dveshti na shochati na kankshati shubha shubha parityagi bhakti manya same priyaha sama shuttau cha mitre cha tatha mana pamanayo shitoshna sukha dukeshu sama sangha vivarjitaha tulya ninda stutir mauni santushto yena kena chit Aniketastira matir bhakti man me priyo manaha Yetu dharma amritam idam yaktoktam payupasate Shradhadhanam mat parama bhaktaste tiva me priyaha Arjunuvacha prakritim purusham chaiva chetram chetragyam evacha Etat veditum ichami jnanam geyam cha keshava Sri Bhagavanu Vacha Idam Shariram Kaunteya Chetramitya Vidiyate Etad Yovetitam Brahu Chetragya Ititad Vida Chetragyam Chapi Mam Vidhi Sarva Ketre Shubharata Ketra Ketragya Yogyanam Yakta Gyanam Matam Mama Tat Ketram Yatcha Yadrikcha Yadvikari Yatascha Yat Sacha yo yat prabhavascha tat samasena me shrinu Rishibir bhuta gitam chandobir vividai prithak Brahma sutra padaischaiva hetumadbir vinishchitai Mahabhutyani ahankaro buddhiravyattam evacha Indriyani dakshai kamcha pancha chendriya gochaha Icha dvesha sukham dukham sangatas chetana dritihi eta chetram sanasena savikaram udaritam amanit bhamadam vitvam ahimsa chanti rajavam acharyu pasanam
putra dara griha dishu Nityam cha samachitta tvam ishtam
ishto papati chushu.
Mai chananya yogena bhaktiravya vicharini vivitta desha sevitvam aratir jana samsadi adhyatma jnana nityatvam tatva janarta darshanam etajnanam iti bhaktam ajnanam yadatanyatha yeyam yattat pravakshami yajyatvam ritam ashnute anadimat param brahma nasatat nasyaduchate sarvata pani padam tat sarvatokshi shirobukam sarvata shutimaloke sarvamavita tishtati sarvendriya gunabhasam sarvendriya vivarjitam asaktam sarvavrishaiva nirgunam gunabhoktricha bahirantascha bhutanam acharam charamevacha sukshmatvata devvigyeyam durastam chantikechatat avibhaktam cha bhuteshu vibhaktam iva chastitam bhuta bhatri cha tagyeyam grashishnu prabhavishnu cha jyotisham apita jyotis tamasa paramuchyate jnanam geyam jnanagamyam vidhi sarvasya vistitam iti kshetram tatha jnanam geyam choktum samasataha madbhakta etat vigyaya madbhava yopapadyate prakritim purusham chayvit vidyanadi ubhavapi vikaramscha gunamschaiva vidhi prakriti sambhavan karya karana kartritve hetu prakriti ruchyate purusha sukha dukhanam bhoktritve hetu ruchyate purusha prakritisto hi bhunte prakriti jan gunan karanam guna sangosya sadasa yoni janmasu upadrashtanu manta cha bharta bhokta maheshwara paramatmeti cha pyukto deheshmin purusha parah yainam veti purusham prakritim cha gunai saha sarvata vartamanopi nasabhuyo vijayate jnaninatmani pasyanti kechidatmanam atmana anye sankhena yogena karma yogena chapare anye tveham jananta shrutangirbra upasate te pi chatitarantyeva mrityum shruti parayanaha yavat sanjayate kinchit satvam stavara jangamam chetra chetra vyasam yoga tadvidi bharatarshava samam sarveshu bhuteshu tishtatam parameshvaram vinashyat svaninashyantam yapashyati sapashyati samam pashyani sarvatra samavastitam ishvaram nahi nashyat manatmanam tato yati param gatim prakrititya karvani kriyamanani sarvasah ya pasyati tatatmanam akartaram sapasyati yada bhuta pritak bhavam ekastam anupasyati tata evam cha vistaram brahma sampadyate tada anadibhan nirgunatvat paramatmayam avyayah shariroastopi kanteya nakaroti nalipyate yatha sarvagatam sokshmad akasham nopalipyate sarvatra vishnuro dehe tatatma nopalipyate yatha prakashyat yatyeka krishnam lokam imam ravi kshetram kshetri tatha krishnam prakashayati bharata kshetra kshetra gyayorevam antaram jnana chakshusha bhuta prakriti moksham cha yevidurianti te param shri bhagavan vacha param bhuya pravakshami jnananam jnanam autamam yajyatva munaya sarve param siddhim mito gataha idam jnanam upashritya mama sandharmyam agataha sargepi nopajayante palayate navyatanti cha mama yoni mahat brahma tasman garbham dadamyaham sambhava sarvabhutanam tato bhavati sabharta sarva yoni sukhantaya mutaya sambhavantiya tasam brahma mahadyonir aham bija pradapita satvam rajastama iti guna prakriti sambhavaha nivadnanti mahabaho deha dehinam avyayam tatra satram nirmalatvat prakashakam anamayam sukha sangena vadnati jnana sangena chanaga rajo ragatmakam vidhi trishna sangha samudbhavam tani vadnati kamthaya karma sangena dehinam tamastra jnana jam vidhi mohanam sarva dehinam pramadasya nidrabhi sthani vadnati bharata satvam sukhe sanjayati raja karmani bharata jnanam avrityatu tama pramade sanjayatyuta rajastamas cha vibhuya satvam bhavati bharata rajasattam tamascaiva tamasattvam rajastata sarvadvayesu dehesmin prakasha upajayate jnanam yada tada vidyad vivridam sattvam ityuta loba pravritirarambha karmanam asamaspriha rajasyetani jayante vivide bharatarshava aprakasho pravrittischa pramado moha evacha tamasyetani jayante vivide kurunandanam yada satve pravritte tu pralayam yati dehavrit tadottamam vidam lokam alam prapipadyate rajasi pralayam gatva karma sangishu jayate tatha pralinas tamasi mudayonishu jayate karmana sukritasyahu satvikam nirmalam phalam rajasastu phalam dukam ajnanam tamasa phalam satvat sanjayate jnanam rajaso lobha eva cha pramada moha tamaso bhavato jnanam eva cha urdvam gacchanti sattvastha nirvikanti rajasa jaganya guna vrittistha ado gacchanti tamasaha nanyam gunebhya kartaram yada drashtanu pashyati gunebhyascha param veti madbhavam sodigacchati gunane tana tityatvin dehi deha samudbhavan janma mrityu jara dukaya vimukto mritam ashnute arjuna vacha kailinga istrin gunane tana tito bhavati prabho kimashara katam chaitam tringunana divartate sri bhagavan vacha prakasham cha pravittim cha moham eva cha pandava na dveshti sapravrittani na nivrittani kankshati udasina vadasino gunayo na vichalyate gunavartante ityevam yo vrittishtati nengati samadukha sukha swastha samaloshtam shma kanchana tulya priya priyo diras tulya nindatma samstuti mana pamana yostulya stulyo mitrari pakshayo sarvaramba paridyagi gunatita sauchate mamcha yoga vicharina bhakti yogena sevate sarvanan samadityaitam brahmabhuyaya kalpate brahmano hi pratishtaham amritasya vyavasya cha shashvatasya cha dharmasya sukhasya ikantikasya cha shri bhagavan vacha urdva mulam dashaka asvatam prahuravyayam chandamsi asya parnani yascham vedat sa vedavit Atas chodvam prasritas tas shishaka guna pravida visaya pravala adasya mulyananushanta tani karmanu bandini manushaloke na rupamaya shehatato palabhyate nanto na cha dir na cha sampratishta avastainam suvirodamulam asanga shastrena dridena chitva tata padam tat parimargitavyam yasmin gata nanivatarte bhuya tameva chadyam purusham prabhadye yata prabhiti prashita purani nirmana moha jita sanga dosha adhyatma nitya vinivritta kama dvandvaya vimukta sukha dukha sangyar gacchantya muda padam avyayam tat na tad bhashayate suryo na shashanko na pavaka yad gadvana nivartante tad dhamma paramam mama mamai vangsa jiva loke jiva bhuta sanatana mana shastan indriyani prakritistani karshati shariram yadavapnoti yachapyutra kramatishvaraha grihit vaitani samyati vayurgandani vashayat shrotram chakshus parshanam cha rasanam grahanam eva cha adishtaya manaschayam vishayan upasevate utrakramantam stitam vapi punjanam vagunani pantam vimudananu pasyanti pasyanti jnana chakshusha yathanto yoginaschayanam pasyantyatmanyavastitam yathanto piyakritatmano nayanam pasyantyachetasa yadadityagatam tejo jagadvashayate kilam yashandrangshasi yachagno tattejo vidimamakam dhamma vishyasya bhutani darayam yaham ojasa pushnami chaushadi sarva somo bhutva rasatmakaha aham vaishvanaro bhutva praninam deham ashritaha pranapana samayukta pachamyannam chaturvidam sarvasya chaham hridi sannivishto mata smritim jnanam apoham cha vedaischa sarvairaham eva vedo vedanta krit veda vedeva chaham dvavimau purusha loke sharascha kshara eva cha kshara sarvani bhutani kutasto kshara uchate
bhutama purusha stranya
paramatme dyudarita yo loka trayam avishya vibhartya vyaya ishvaraha yasmat kshara ham aksharada pichottama atosmi loke vedecha pratita purushottama yomamevam samudo janati purushottamam sa sarva vidbhajati mam sarva bhavena bharata iti guyatamam shastram idam uktam mayanaga ithad budva buddhiman syat krita krityascha bharata sri bhagavan vacha avayam sattva sanshudir jnana yogya bhavastita danam damascha yagyascha svadhyaya sattva arjavam ahimsa sattvam akrodas tvago shantira paishunam daya bhushrela lulupam mardavam hirachapam tejakshamadhitirshocham adronati manita bhavanti sampadam daivim avigyata shabharta dambo darpo vimanascha krodha parushameva cha agyanam cha vijatasya partha sampadam asurim daivi sampad vimokshaya nibaddaya surimata masucha sampadam daivim avijato pipandava Dvabhuta sarga lokesmin daiva asureva cha daiva vishtarasa prabhda asuram parthameshino pravittim cha nevittim cha janana vidura asura na shocham na picha charo satyam te shuvidyate asatyam apatishtam te jagadahuranishvaram aparaspara sambhutam nyamanyat kama hoitukam etam drishtim avastabhya nashtab manol pubuddhayaha tavadanti ugra karmana kshayaya jagatoitaha kamana shritya dushparam dambamana madanvita mohadvihit vasadgrahan pravartante shuchivrataha chintam aparimayam cha pravayantam upashitaha kamupabhoga parama itavaditi nishchitaha Āśa-phāśa-śa-thayr-vaddhā kāma-kodha-parāyana īhante kāma-bhogattam anyayenārta-sanchayam idam-adhyāmaya-labdham imam-prapse-manoratham idam-hastidam-api-me-bhavishyati-pumārdhanam asamaya-hata-shatru-ranishe-chāparam-apri Ishvaro ham ham bhogi siddho ham balavan sukhi adyo vijanavan asmi konyosti sadrisho maya yakshe dasyami modisya iti yajnana vimoitaha aneka chita vibranta mohajala samavitaha prasakta kama bhogeshu patanti narakeshu cha Atma sambhavita stabda dhanamana madanvita yajante nam yajaste dhamma venai vidhi purvakam ahankaram balam dartam kamam krodam cha sabhishita mam atma paradeshu radhishanto vyasuryakaha tanaham vishita kururam saṃsareṣu narādamam śripāmi yajaśvam asubham asurishveva yonishu asurim yonim apanam uda janmani janmani māma prapyaiva kaunteya tathoyatyadanam gatim trividam narakāsidam dvaram nāśanam ātmanā kāma-krodhas-tathā-lobhas-tasmadetatrayam tyajat Ithair vimukta kaunteya tamodvara istribirnara acharatyatmana shayas tatoyati param gatim yashastribvidim utsridja vartate kamakartaha nasasidim avapnoti nasukam na param gatim tasmachastram pramanam te karyakarya vyavivastitao Yatva Shastra Vidhanoktam Kama Kartu Mihasi Arjuna Vacha Ye Shastra Vidhim Utsrija Yajante Shradayan Vitaha Tesham Nishtatuka Krishna Sattva Maho Rajastama Shri Bhagavan Vacha Trivida Bhavati Shradha Dehinam Sasva Bhavaja Sattviki Rajasi Chaiva Tamasi Cheti Tam Shrinu Sattvanu Rupa Sarvasya Shraddha Bhavati Bharata Shraddha Mayoyam Purusha Yoyach Shraddha Dasa Evasa Yajante Sattvike Devan Yaksha Raksham Si Rajasaha Prethan Bhuta Ganam Shanye Yajante Tamasa Janaha Ashastra vihatam gauram tapyante yetapo janaha damba hankara samyukta kamaraga palanvitaha karshantata shariirastam bhuta gramam chetasaha mam chaivanta shariirastam tanvida sura nishchayan Aharastvapi sarvasya trivido bhavati priya yagyastapastatadanam tesham vedam imam shrinu ayusatva balarogya sukha priti vivardhanaha rasya snigdha stira hridya ahara sattvika priyaha katvamna lavanatyushna tikshna rukshna vidahina ahara rajasa sishta dukha soka maya prada yata yaman gatara sambhuti paryushitam chayat uchistam apicham idyam bhojanam dhamasa priyam
Afalakangshibhir
yagya vidhidishto ya ijjate yastavyame viti mana samadaya sasatvika abhisandaya tupalam dambat tam apichayvayat ijjate bharta shreshta tam yagyam vidhirajasam Vidihinam ashristanam mantrahinam adakshinam shraddha virahitam yagyam tamasam parichakshate devadvija guru pragya pujanam sauchamarjavam brahmacharyam ahimsaccha shariram tapyuchate anudvega karam bhakyam satyam priyahitam chayat Svadhyaya vyasanam chaiva vanmayam tapuchyate mana prasada samyatvam maunam atma vinigraha bhava samshudhiriteta tapo manasamuchyate shraddhaya paraya taptam tapastha trividam narai afalakangshi biryuktai satikam parichakshate Satkaramana pujartam tapodambena chayvayat kriyate tadiha proktam rajasam chalamadruvam muda grahina atmanoyat pidaya kriyate tapa parashyot sadhanartam ba tathamasam udaritam datavyamiti yaddanam diyate nupakarine Deshe kale cha patre cha taddanam satikam smitam yattu pratyupakataram phalam udishya vapunaha diyate cha parikrishtam taddanam rajasam smitam adesha kale yaddanam apratebhyascha diyate asatkritam avagyatam tattamasam udaritam Om Tat Sad Iti Nirdesho Brahmanas Trividashmita Brahmanas Tena Vedascha Yagyascha Vita Pura Tasmarum Iti Upadaritya Yagyadana Tapakriya Pravartante Vidanokta Satatam Brahmavadinam Tadityuna Vishandaya Phalam Yagyatapakriya Dana kriyascha vivida kriyante moksha kanshibihi sadbhave sadubhave cha sadyetat paryujyate prasaste karmani tatha sachabda partayujyate yagye tapasi dani cha stiti saditi ochochyate karma chaiva tadatiyam saditieva vidiyate Ashraddhaya hutam dattam tapas dattam kritam chayat asad ityuchyate partha na cha tat pritya no iha Arjunuvacha sanyasyasya mahabaho tattvam icchami veditum tyagasya cha rishikesha pritakkeshi nishudana Sri Bhagavan uvacha kamyanam karmanam niyasam Sanyasam kavayo vidu sarva karma palatyagam praustyagam vichakshana Tyajam dosha vaditye karma prahur manishina Yagyadana tapa karma natyajam iti chapare Nischayam shrinume tatra tyage bharata sattama Tyago hi purusha vyagra trivida samprakirtita Yagyadana tapa karma natyajam kayameva tat Yagyodanam tapaschaiva pavanani manishinam Etanyapi tu karmani sangam tyakpa palani cha Kartavyani titime partha nishtitam matam uttamam
Niyatasya tu sanyasa karmano no papadyate mohatasya parityagas tamasa prakritita dukam ityeva yat karma kaya klesha bayatyajet sakritva rajasam tyagam naiva tyaga phalam labet kayam ityeva yat karma niyatam kriyate arjuna sangam tyaktva phalam chaiva satyaga sastiko mata nadvesya kushalam karma kushale nanu sajjate tyagi sattva samavishto medavichina sankshaya nahi deha vita sakyam tyaktum karmanya sheshataha yastu karma phala tyagi sakya itya vidyate anishtam ishtam mishram cha trividam karmana phalam bhavatyat tyaginam pritya natu sanyasinam kvachit panchaitani mahabaho karanani nabodame samke kritante poktani siddhaye sarva karmanam adhishtanam tata karta karanam cha pritak vidam vividas cha pritak cheshta daiva chayvatra panchamam sharira van mano biryat karma paravate mannara nyayam va viparitam va panchayate tashyetavaha tatraivam sati kartaram atmanam kevalam duya pasyatya krita buditvan navsa pasyati durmati yasya nahan krito bhavo budir yasya nalipyate hadvapi saimavlokan nahanti nani baddate jnanam geyam parigyata trivida karmana chodana karanam karma karteti trivida karma sangraha jnanam karma cha karta cha tridayava guna vedata prochate guna sankhyane yathava chrinutanyapi sarva bhuteshu yenaikam bhavam avyayam ikshate avivaktam vivakteshu tajjnanam vidisatvikam pritaktvena yutuk yajjnanam nana bhavam pritakvidan vyati sarveshu bhuteshu tajjnanam vidirajasam yattu krishna vadekasmin karye sattamahoiktutam athatvartha vadalpam cha tathama sumudaritam niyatam sanga rahitam araga dveshata kritam apala prepsuna karma yattat satikam uchyate yattu kamepsuna karma sahankarina vapuna kriyata buhulayasam tadraja samudaritam anubandham kshayam himsam anapeksha cha paurusham mohadarabhyate karma yatat tamasam uchyate mukta sango naham badi dritya utsaha samanvitaha siddhya siddhyor nirvikara karta satvika uchyate lagi karma phala prepsur lupto hinsatmako suchi harsha shokanvita karta rajasa parikirtita ayukta prakrita stabda sato naishkrito lashaha vishadi dirga sutricha karta tamasa uchyate budhir vedam dhritescaiva gunata srividam shrino prochamanam asheshena pitaktrena dananjaya pravittim cha navittim cha kaya kaye vaya vaye bandham moksham cha cha buddhi sa partha satviki yaya dharmam dharmam cha karyam cha karyam eva cha avayathavat prajanati buddhi sa partha rajasi adharmam dharmam itiya manyate tamasavita sarvarthan viparitamscha buddhisa partha tamasi dhritya yaya darayate mana pranendriya kriya yogina vicharen charinya driti sa partha satviki yayatu dharma kamartan dritya darayate arjuna prasangena palakamshi driti sa partha rajasi yaya swapnam vayam shokam vishadam madamevacha na vimunchati durmeda driti sa partha tamasi sukam tridam tridvidanam trividam Shinume Bharatarshava Vyasa Ramate Yatra Dukantam Chadnigachati Yatadagre Vishamiva Parinane Mitopamam Tatsukam Satvikam Proktam Atma Buddhi Prasadajam Vishayendriya Samyogad Yatadagre Mitopamam Parinane Vishamiva Tatsukam Rajasam Shmitam Yadagre Chana Chanubande cha sukham mohanam atmana nidralasya pramadottam tattam samudaritam natarasti prithivyam cha dividveshu va punaha satyam prakriti jair muktam yadevi syat tribir guna brahmana chatriya visham sudranam cha parantapa Karmani Prabhibhaktani Svabhava Prabhavaya Gunai Samodamastapa Socham Chantirajamamevacha Jnana Vijnana Mastikyam Brahma Karma Svabhavacham Soyam Tejo Tritir Daksham Yudecha Pyapalayanam Danam Ishvara Bhavascha Chatram Karma Svabhavacham Krishi Goraksha Vanijam Vaishakarma Svabhavacham Parichandhyatmakam karma sudrasyapi svabhavajam sve sve karmanya virata saṃsiddhim lavate nara svakarma nirata siddhim yata vindati tachinu yata pravriti bhutanam yena sarvamidam tatam svakarmanatam abhyarcha siddhim vindati manavaha sreyan svadharmo viguna paradharmat svanustitat Svabhavanyatam karma kurvam natilvisham Sahajam karma konteya sadosham apinatyajit Sarvaram vahidoshena dumena agnirivavitaha Asakta buddhi sarvatra jitatma vigataspriha Naiskarmya siddham paramam sanyasena adigachati Siddhim prapto yata brahma tatapno ti nibodhame samasena vakonteya nishta jnanasya yapara buddhya vishuddhyaya yukto dvidyamanam niyamyacha shabda din visayam stiyatva raga dvesha vyudasyacha virikta sevi lagvasi yatavakaya manasa Jnana yoga paro nityam vairagyam samupashvitaha ahankaram balam dartam kamam krodam parigraham vimuchya nirmama shanto brahma bhuyaya kalpate brahma bhuta prasanatma na sochati na kankshati samasardeshu bhuteshu madbhaktim labate param Bhaktya dvananjana te ravanchasma svichatata tato mam tat tato gyatva vishate taranantaram sarva karmanya pisada kurvano madhya pashraya mad prasada lavapnoti shasvatam padam avyayam chetasa sarva karmani mayai sanyasya matpara buddhiyogam upasritya machita satatam bhava Machita sarva durgani mat prasada tarishasi atachetva mahankaram nashoshasi vinakshasi yad ahankaram asritya naryocha iti manyase mittaisha vyavasayaste prakriti stvam niyokshati svabhava jena konteya nibhata svena karmana Kartum nechasiyan mohat karishasya vasopitat Ishvara sarva bhutanam videshe arjunatishtati Ramayan Sarvabhutani Yantra Rudani Maya Tameva Sharanam Gacha Sarvabhavena Bharata Tat Prasadataram Shantim Stanam Prapsha Shishasvatam Iti Te Jnanam Akhyatam Guyat Guyataram Maya Vimshaitar Sheshena Yathe Chasitata Guru Sarva Guyatta Mambuya Shinume Paramambacha Istosi Me Dudamiti Tato Vakshami Dehitam Manmana Bhava Madhato Madhyaji Mam Namaskuru Mame Vaishasi Satyante Pratijane Priyosime Sarva Dharman Parityajya Mamekam Sharanam Vaja Aham Tam Sarva Papebhyo Moksha Ishami Masucha Idante Nata Paskaya Na Bhaktaya Kadachana Nacha Shushushavevacham Nacha Mam Yobhyasuyati Yaidam Paramum Guyan Mam Bhakteshva Vidasyati Bhaktim Mai Param Kritva Mame Vaishyatya Sangshaya Nacha Tasman Manusheshu Kaschin Me Priyakritamaha Bhavita Nacha Me Tasmad Anya Priyataro Bhuvi Adyeshate Cha Yai Mam Dharmyam Svambadam Avyayo Jnana Yajnena Tenaham Ista Shyam Iti Me Mati Shradavan Anasuyascha Shrinuyada Piyonara Sopi Mukta Subalokan Praknuyat Punya Karmanam Kachide Tachutam Partha Tayakagrena Chetasa Kachida Jnana Samoha Pranashtashte Dananjaya Arjuna Vacha Nasto Moha Smriti Labda Tat Prasadan Mayachuta Stitosmi Gata Sandeha Karishe Vachanam Tava Sanjayu Vacha Ityaham Vasudevasya Parthasya Cha Mahatmana Sambadam Imam Ashrausam Adbhutam Romaharshanam Vyasa Prasadat Chutavan Etat Guyam Aham Param Yogam Yogeshwarat Krishnat Sakshat Katha Yatha Swayam Rajam Samsmritya Samsmritya Sambadam Imam Adbhutam Keshav Arjunayo Punyam Hrishyami Cha Muhur Muhu Tachcha Sam Vishmayo Me Mahan Rajan Hrishyami Cha Puna Puna Yatra Yogeshwara Krishna Yatra Parto Danurdaraha Tatra Shir Vijayo Bhutir Dhruvanditir Matir Mama. From the beginning now. Whoa, Krishna.
Dinner?
Huh?
Dinner?
What?
They said
dinner.
They're
pancakes.
Pancakes are...
10 to 10, huh? Wow. We're a little slower.
Yeah.
That's a yajna.
Kato.
It is math.
Oh, Krishna.
I hear some sandiko.
My gosh. Forget pronouncing it, just to finish it is. Krishna. Okay, let's see, let's see who's elected. I guess it is. What do we got here?
I don't know.
Okay.
Ouch.
What else is there?
Nothing.
That's it, huh?
Yes.
Okay, well.